तत्राप्युल्लेखनं शस्तं स्वेद कालप्रदीक्षणं प्रदिव्याधिबलं बुद्ध्वा श्रंसनमेव च तक्रारिष्टप्रयोगश्च रूक्षपानान्न सेवनम् मूत्राणां त्रिबलायाश्च स्नेहव्यापत्तिभेषजम्।